अस्तु, एतावत्पर्यन्तं वयं न्यायभाषायाः कानिचन प्रमुखः विषया प्रमुखान् विषयान् दृष्टवन्तः. ते उपकरणानि सन्ति यैः अस्माकं न्यायभाषायाः विवरणं सम्यक् ज्ञायते. अस्माकं प्रथमम् उपकरणम् अस्ति आधार आदेयभावः इति. वयं दृष्टवन्तः यत् प्रथमे पृष्ठे तर्कसङ्ग्रहे वा न्यायशास्त्रे मूलग्रन्थे नैयायिकैः विभजनं कृतं. जगति यावन्ति वस्तूनि सन्ति तेषां नवविधया विभजनं कृतम्. अपि नवपदार्थाः इति उच्यन्ते. अपि तु पदार्थयोः मध्ये यः सम्बन्धः अस्ति तस्य विवरणम् अपि दृष्टम्. विवरणसम्बन्धे एव आधार आदेयभावः इति संज्ञा दृष्टा अस्माभिः. कोऽपि वदति वा अत्र अस्माकं लौकिकम् उदाहरणं किम् इति अहं वदामि. तस्मात् परं न्यायभाषायां केषुचित् सन्दर्भेषु आधार आदेयभावः विद्यते, ते के इति वयं पश्यामः. लौकिक उदाहरणम् अस्माकम् आसीत् यत् यज्ञदत्तः आसने उपविष्टः वर्तते इति. तत्र अधिकरणं वा आधारः अस्ति आसनं, यतोहि आसनं भारं वहति. कस्य भारं वहति? यज्ञदत्तस्य भारं वहति. इत्युक्ते यज्ञदत्तः इति पुरुषः तस्मिन् निष्ठः अस्ति. निष्ठः इत्युक्ते तस्मिन् आसनं प्रलम्ब्य उपविशति, आसनम् अवलम्ब्य उपविशति, आसने एव उपविशति इति कृत्वा यज्ञदत्तः आधेयः अस्ति. अत्र यज्ञदत्तः यः आधेयः अस्ति सः भारं स्थापयति अधिकरणे वा आधारे. अतः विषयद्वयम् अस्ति अत्र. एकः तु आधारः वा अधिकरणम् इति, अपरः आधेयः इति. एतयोः मध्ये आधार आधेयभावः वर्तते. आधार आधेयभावः वर्तते इति कृत्वा कश्चन भावः अपि लक्ष्यते अत्र. अधिकरणे यः भावः अस्ति तस्य संज्ञा अस्ति अधिकरणता वा आधारता इति. अधिकरणता वा आधारता आसने अस्ति. यज्ञदत्तः आधेयः इति कृत्वा तस्मिन् आधेयता अस्ति. अतः आधार आधेयभावः अधिकरण आधेययोः मध्ये दृश्यते. अस्तु, इदानीं न्यायभाषायां तादृशः आधार आधेयभावः एव दृश्यते. कोऽपि वदति वा? अस्तु, एकैकशः उदाहरणं ददातु. आधारता कुत्र, आधेयता कुत्र इति पदार्थं द्वयं स्वीकृत्य. वयं पूर्वमेव दृष्टवन्तः अस्माकं प्रथमे वर्गे नवपदार्थाः सन्ति. एषां विवरणं प्रथमे पृष्ठे अस्ति. तद्दृष्ट्वा कृपया वदतु यत् आधारता कुत्र, आधेयता कुत्र इति. हा, अस्तु, रमाभाई भगिनी वदति वा? तस्मात् प्राक् रवि महोदय आसीत् खलु? एकनिमिषं भगिनि, अहं नाम लिखामि, एकनिमिषं रवि महोदय. श्रूयते, भवान् वदति खलु वर्गे, पठति अपि तु, भागं गृह्णाति खलु? अस्तु, उत्तमम्. अनोनिमस् इति कोऽपि अस्ति, केन आगतम्?
इदानीं तु
पुष्पा भगिनी.
अस्तु 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 भगिनि. आं महोदय, रवि महोदय वदतु.
इदानीं तु अहम् आगतवान्.
आम् आम् आम्. अस्तु, अन्य कोऽपि अपि अस्ति अनोनिमस् इति दृश्यते, कः अस्ति? अहं नामानि वदामि. रमाबाई भगिनी, सदाशिवमहोदय महोदयः, सीमा भगिनी, प्रिया भगिनी, विजया भगिनी, पुष्पा भगिनी, रवि महोदय. अन्यत्? अन्य कोऽपि? आम्, अरुणा भगिनी अस्ति. अस्तु अस्तु, तर्हि रमाबाई भगिनी उदाहरणम् उच्यतां कृपया.
प्रथमपुटे
यत् प्रथमे पृष्ठे उदाहरणानि सन्ति.
द्रव्यं गुणः अस्तु वा भगिनि?
आम्, यत्किमपि स्वीकृत्य वदतु भगिनि.
द्रव्यम् अस्ति, गुणः अस्ति. अत्र द्रव्यम् आदेयत,
द्रव्यम् अधिकरणं वा आधारः?
द्रव्यम् अधिकरणता आदेयः गुणः.
किञ्चित् संशोधयामि तत्र. द्रव्यम् इति अधिकरणं वा आधारः, तस्मिन् अधिकरणता अस्ति, ता इत्यस्य योजने
द्रव्यम् अधिकरणता अस्ति, अस्ति.
पुनः भगिनि, द्रव्ये अधिकरणता खलु?
द्रव्ये अधिकरणता.
गुणे, गुणे किम् अस्ति
भगिनि?
गुणे, गुणे किम् अस्ति? गुणः इति आदेयः,
गुणः इति आदेयः. द्रव्यं निष्ठ,
न न, तावत्पर्यन्तं न वक्तव्यं भवति, केवलं कुत्र अधिकरणता, कुत्र आधेयता इत्येव.
द्रव्यम् आधेयता, द्रव्ये आधेयता.
न, पुनः भगिनि, अत्र भ्रमः मास्तु. अधिकरणमिति स्वीकरोतु, अधिकरणं तु स्पष्टं जानीते इति मध्ये मन्ये खलु? अधिकरणम् इत्युक्ते, अधिकरणम् इत्युक्ते अधिकरणरूपेण यत् अधः अस्ति तत् अधिकरणम्. अतः द्रव्यम् अधिकरणं, गुणः, गुणः
आदेयम्,
आदेयः,
आदेयः, गुणः आदेयः.
अतः द्रव्ये किम् अस्ति?
द्रव्ये गुणः अस्ति.
एकनिमिषम्, अत्र आदेय आधार आधेयभावस्य विवरणम् एव इष्टं खलु अस्माभिः? आधारता कुत्र, आधेयता कुत्र?
द्रव्ये आधारता, गुणः आधेयता.
द्रव्ये अधिकरणता वा आधारता, गुणे आधेयता. समीचीनं. सदाशिव महोदय, अपरम् उदाहरणम्.
आधारता पृथिव्याम् अस्ति, आधेयता गन्धे अस्ति.
समीचीनम्. अग्रे सीमा भगिनी.
जले शैत्ये आधेयता अस्ति.
जले अधिक न न श्रुतं भगिनी, पुनः एकवारं, न श्रुतं सम्यक्तया.
ओके, क्षम्यता. एकनिमिषम्. जले आधारता अस्ति, शैत्ये अधेयता अस्ति.
समीचीनं. प्रिया भगिनी,
तेजः औष्ण्यं, तेजे आधारता अस्ति, औष्ण्ये आधेयता अस्ति.
तत्र सम्यक् तेजसि इति, तेजस् इति सकारान्तपदम् अस्तु. समीचीनम्.
इदानीं मम एकः प्रश्नः अस्ति, अत्र लिङ्गभेदः नास्ति वा? आधारता इत्युक्ते स्त्रीलिङ्गपदम् अस्ति खलु?
आम्, सर्वदा स्त्रीलिङ्गपदमेव.
ओ अस्तु वा, अस्तु.
कथा सुन्दरता इत्यादयः सर्वदा स्त्रीलिङ्गपदानि एव. अस्तु, विद्या भगिनी
वदामि
मां.
वायौ अत्र द्रव्यं, वायुः गुणः कर्षः. द्रव्ये वायौ अधिकरणता अस्ति, कर्षे आदेयता अस्ति.
समीचीनं. पुष्पा भगिनी, पुष्पभगिनी अस्ति वा?
अस्मि भगिनि. वायु समस्तं वायु आकाश शब्दः शब्दः आधा आधारता आकाशः आधेयता.
किमर्थं किं कस्मिन् अस्ति, किं कस्मिन् अस्ति?
शब्दः आकाशे अस्ति.
हा इति इति
तत्तु हा 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 स्थापयामि. आधेय न न न ऐं सारि शब्दः अधिकरणता आकाशः आदेयत.
भगिनि अत्र
क्षम्यतां भगिनि, आकाशः अधिकरणता आधारता शब्दः आधेयत
इति. आकाशे अधिकरणता, शब्दे आधेयत. अधिकरणम् इत्युक्ते अस्माकं गृहस्य अधिकरणं कुत्र अस्ति, उपरि वा अधः? अधः अस्ति खलु गृहस्य अधिकरणम्. अधिकरणम् अवलम्ब्य एव उपरि यत्किमपि भवतु तिष्ठति खलु. अतः एव अधि अधिः, अधि इत्युक्ते अधः इति स्मरतु. अधिकरणं यदि यत् अधिक अधिकरोति इति अर्थे.
आकाशः अधिकरोति, शब्दः आधेयता अस्ति,
शब्दे आधेयता. अग्रे रवि महोदय. समीचीनम्.
काले संख्या अस्ति, कालः काले अधिकरणता वा आधारता अस्ति.
संख्यायां
आधेयता अस्ति.
समीचीनम्. अन्य केनापि समीचीनं महोदय, केनापि आगतं वा नूतनतया?
आं भगिनी, क्षम्यता, विजि अस्मि.
विजी गोविन्दराजन् भगिनी अस्तु, न दृश्यते अत्र. किमर्थं? नमस्कारः.
नमस्कारः.
अनोनिमस् इति दृश्यते वा?
न, मम नाम अस्ति अत्र.
न दृश्यते भगिनि,
न दृश्यते.
चिन्ता
मास्तु, अत्र वर्गे
लिखितम्. आमाम् आम्. अस्तु अग्रे मुरलीमहोदय, नमस्कारः. वदतु कस्यचित्
अधिकरणता दिक् अस्ति, आधेयता संख्या.
आधेयता संख्यायां ता इत्यस्य योजनेन भावः सूचितः अस्ति. सुन्दरता इति वदामि चेत् सुन्दरः इति भावः खलु. सुन्दर तस्मिन् सुन्दरता अस्ति. सीता वा किं बालकः सुन्दरः इति वदामि चेत् तत्र बालके किम् अस्ति, कीदृशभावः दृश्यते? सुन्दरता इति भावः खलु. अस्तु, समीचीनम्. अग्रे
भगिनि, यथा घटं घटत्वं समानं
समानं न भवति खलु. घटः स्थूल स्थूल स्थूलदृष्ट्या घटः दृश्यते खलु. स्थूलरूपेण दृश्यते घटः, यत् वयं स्पर्शामः, परन्तु घटत्वं न स्प्रष्टुं शक्नुमः खलु. तदेव भावः इति उच्यते. धर्मः इति. अस्तु, विजयगोविन्दराजन् भगिनी.
अस्तु भगिनि, भगिनि
आं वदतु भगिनि उदाहरणं.
द्रव्ये
इति न, तत्सर्वं उक्तम्. अन्तिमे द्रव्यद्वयम् अस्ति.
द्रव्ये समवायः अस्ति खलु.
तदपि वक्तुं शक्यते इदानीम्. आत्मा इति स्वीकरोति वा?
आत्मायाम्
आत्मन् इति नकारान्तपद आत्मनि इति.
आत्मनि आत्मनि ज्ञानमस्ति.
परन्तु आधारता आधेयता कुत्र?
आत्मा आधारता
आत्मनि
आधारता न्यायं ज्ञाने भगिनि, ज्ञाने वक्तुं शक्नोति क्या?
आमाम् अवश्यं. ज्ञानं ज्ञाने सप्तम्यां पदं.
ज्ञाने आधार आधेयता.
हा, सम्यक्.
आधेयता अस्ति.
सम्यक्. अस्तु,
तदनन्तरम्
एतावत् न सम्यक् सम्यक् भगिनि, धन्यवादः. एतावता अस्माभिः तुष्टिः न जायते यत् सर्वैः सम्यक्तया अवगतम् इति. इतोपि भ्रमः अस्ति वा अस्मिन् विषये? आधारः कः, कस्मिन् आधारता, कस्मिन् आधेयता इति कृपया पृच्छतु. अन्य संशय इदानीमेव वक्तव्यमस्ति, नो चेत् अग्रे न सर्तुं शक्यते.
स्पष्टं भगिनि, धन्यवादः.
अस्तु अस्तु, तर्हि सुक्याम् अपि वदनीयम् एतत् एषः विषयः. अधिकरणं किम्, आदेयः कः इति वक्तव्यम् अस्ति.
भगिनि
आम्
मुरली
आम् वदतु महोदय.
अधिकरणता आधार एकम् एव एक एव
अधिकरणं वा आधारः समानार्थकौ एव. अधिकरणम् इति नपुंसकलिङ्गपदम् आधारः इति पुल्लिङ्गपदम् अस्तु अग्रे सरेम अस्तु तदनन्तरं निष्ठ वा वर्ति एतयोः प्रयोगेन तयोः सम्बन्धः उल्लिखितः अस्माभिः कयोः सम्बन्धः सदाशिवमहोदय वदति वा कयोः सम्बन्धः निष्ठ वा वर्ति इति उपयुज्य
पृथिव्यां निष्ठ गन्धः पृथिव्यां वर्ति गन्धः
अस्तु एतावत्पर्यन्तं केवलम् अधिकरणे यत् अस्ति अधिकरणे यत् अस्ति अधिकरणता इति तयोः सम्बन्धः एव वयं अस्माभिः निर्दिष्टः खलु इत्युक्ते अहम् उदाहरणम् एकनिमिषं क्रमेण गच्छामः कृपया
पृथिव्यां निष्ठ अधिकरणता
पृथ्वीनिष्ठ अधिकरणता
अधिकरणता गन्ध गन्धे गन्ध गन्धस्य
गन्धनिष्ठ
गन्धनिष्ठ वर्ति आदेयता
निष्ठ वा वर्ति
निष्ठ वा वर्ति अस्ति
यत्किमपि प्रयुज्यते परन्तु द्वयोः आवश्यकता नास्ति
अस्तु अस्तु
अस्तु प्रिया भगिनी वदति वा निष्ठ वा वर्ति उपयुज्य
आं भगिनी प्रयत्नं करोमि जलं निष्ठ अधिकरणता
जलनिष्ठ अधिकरणता
जलनिष्ठ अधिकरणता क्षम्यताम् शैत्यं वर्ति आधेयता
शैत्यवर्ति आधेयत वा शैत्यनिष्ठ आधेयत
अस्तु इदानीं पृथ्वीवर्ति अधिकरणता अपि सम्यक्
अवश्यं पृथ्वीवर्ति अधिकरणता अस्तु केवलं पूर्वं किं कृतवन्तः वयं सप्तम्यान्तप्रयोगः कृतः अस्माभिः इदानीं सप्तमी इत्यस्य स्थाने विभक्त्याः स्थाने निष्ठः वा वर्त्याः प्रयोगः निष्ठः वा वर्ति इत्यस्य प्रयोगः
संशयः
आम्
पृथिवी निष्ठः पृथिवी वर्ति प्रयोगे समासपदः पृथिव्याः निष्ठः
अस्तु इदानीं पूर्वं समासविषयान् दृष्टवन्तः इत्युक्ते पृथिवी अस्तु अस्माकं समासपदं किं पृथ्वीनिष्ठ अधिकरणता समस्तपदं पृथ्वीनिष्ठ
अधिकरणता तस्मिन् विभक्ति का
वदामि महोदय तत्र प्रथमम् अस्ति पृथिव्याम् अधिकरणता इति तत्र सप्तमी तत्पुरुषसमासः भवति पृथ्वीनिष्ठ इत्युक्ते किं पृथिव्याम् अधिकरणता इति अर्थः तत्र सप्तमी तत्पुरुषसमासः अग्रे किम् अस्ति तथैव अस्ति खलु गन्धनिष्ठ आधेयत गन्धे आधेयत इति पुनः सप्तमी तत्पुरुषसमासः एव
गन्धनिष्ठ आधेयत अथवा गन्धवर्ति आधेयत द्वयमपि
समानमेव आम् आम् अर्थः तु एकः एव खलु अतः समासविषये अपि समानः एव. अस्तु, अन्य कोऽपि प्रयत्नं करोति वा? रवि महोदय,
धन्यवादः भगिनि.
निष्ठ वा वर्ति उपयुज्य वाक्यं रचयतु. वाक्यमिति न, अस्माकं विषयं वदतु.
जलनिष्ठ आधारता.
तदपि अभवत् खलु महोदय, तदुक्तं केनचित्. अन्यत् स्वीकरोतु कृपया.
न
क्रमेण क्रमेण गच्छामः कृपया.
वायुनिष्ठ आधारता.
सम्यक्. आधेयता कीदृशी आधेयता?
स्पर्शवर्ती.
आधेयता, समीचीनम्. अस्तु, अग्रे सरेम. इदानीं ससम्बन्धिकाः पदार्थाः इति दृष्टाः. ययोः मध्ये सम्बन्धः सर्वदा वर्तते, तौ ससम्बन्धिकौ इति उच्यते. सम्बन्धेन एव वर्तते पदार्थौ इति कृत्वा, यथा रामः पुत्र, रामः पिता. रामः पुत्रः इति वदामि चेत् तत्र आकाङ्क्षा भवति, कः तस्य पिता इति. अतः अत्र अस्मिन् उदाहरणे रामः पिता, तयोः सर्वदा सम्बन्धः भवति. न न लौकिकविषये, अपि तु पदविषये सम्बन्धः भवति खलु. रामः पुत्रः इति वदामि चेत् तत्र पिताया पितुः सूचनं सर्वदा भवति एव, यथा भार्या भर्ता. एतयोः अपि तादृशसम्बन्धः एव दृश्यते. अतः ससम्बन्धिकाः पदार्थाः इति उच्यन्ते. अस्तु, इदानीं सीमा भगिनी वदतु, अस्माकं न्याय उदाहरणे एतावता यत् चर्चितवन्तः, तत्र सम्बन्धिकपदार्थः कः?
द्रव्यं गुणः.
समीचीनं भगिनि, बहु समीचीनम्. इत्युक्ते किञ्चित् वदति वा किमर्थं ससम्बन्धिकौ?
गुणः द्रव्ये एव भवति. तयोः मध्ये सम्बन्धः सदा भवति. अतः द्रव्ये उक्ते कः गुणः इति आकाङ्क्षा भवति.
बहु समीचीनं, बहु समीचीनं भगिनि, समीचीनमेव. अस्तु, इदानीं अन्य कोऽपि अन्यत् उदाहरणं वदति वा? विजया भगिनी.
मां
विजया भगिनी, ससम्बन्धिकस्य
तेजसि औषण्यम्. औषण्यम्
तेजसि औषधम् अस्ति. आम्, परन्तु किमर्थं तौ ससम्बन्धिकौ वा?
तेजसि अधिकरणता अस्ति. औषण्ये आदेयता अस्ति.
हा, परन्तु किमर्थं ससम्बन्धिकः पदार्थः?
किमर्थं पिता आदेयम् अस्ति तादृश एव तत्र तेजसि औषण्यम् अस्ति.
अस्माकं लौकिक उदाहरणे मया उक्तः यत् रामः पुत्रः इति वदामि चेत् तत्र रामस्य पितायाः आकाङ्क्षा भवति इति खलु.
पुत्रत्वम् अस्ति
रामे पुत्रत्वम् इत्युक्ते तत्र पितृत्वम् अपि भवेत् खलु तस्मिन्
पितृत्वम्
अतः भवत्याः उदाहरणे तेज उष्णयोः मध्ये तादृशसम्बन्धः वर्तते वा?
सम्यक् वर्तते.
यतोहि किञ्चित् विवृणोतु भगिनि. सम्यक् भवती यत् वदति सत्यमेव, किञ्चित् विवृणोतु.
तेजसि उष्णम् अस्ति, तेजसि अधिकरणता अस्ति, औषण्ये आदेयता अस्ति. किमर्थं पुत्र रामे पुत्रत्वम् अस्ति, दशरथस्य पुत्र पितृत्वम् अस्ति.
तथैव तथैव वदतु भगिनी, तथैव
तथैव तत्र अपि तेजसि औषण्यमस्ति.
इत्युक्ते तेजः अधिकरणम् इति उक्तं खलु भवत्या? तेजः अधिकरणं चेत् कोऽपि आदेयः भवेत् एव.
आदेयः तत्र उष्ण्यः
अतः तौ ससम्बन्धिकौ.
अतः
अधिकरणे उक्ते आदेयः आदेयस्य आकाङ्क्षा भवति इति कृत्वा तौ ससम्बन्धिकौ. अस्तु रघुपति महोदय, स्वागतम्.
हा भगिनि, अत्र किञ्चित् इण्टर्नेट् मध्ये बाधा आसीत्.
चिन्ता मास्तु. इदानीं प्रिया भगिनी, अस्तु अस्माकं लौकिकम् उदाहरणमासीत् निरूपकः निरूप्यः इति. तत्र अस्माकं लौकिकम् उदाहरणमासीत् व्यासः कृष्णकथां निरूपयति इति कृत्वा व्यासः निरूपकः, कृष्णकथा निरूप्या अस्ति इति. अतः व्यासे निरूपकता, कृष्णकथायां निरूप्यता. तत्र निरूपकनिरूप्यभावः तु एकदिशि एव वर्तते. किमर्थम् इति वदति वा?
आं भगिनि, अत्र व्यासः कृष्णकथां लिखितवान्, व्यासः एव कृष्णकथायां निरूपकथा अस्ति, परन्तु कृष्णकथा व्यासस्य निरूपकथा न अभवत्, तथैव एकदिशि अस्ति. अत्र व्यासः निरूपकथा, कृष्णकथा निरूप्यता.
इदानीं कृपया देयं यत् सा यदा तल् प्रत्ययस्य उपयोगं कुर्मः तदा कस्मिन् अस्ति इति विवरणं दद्यात्. इत्युक्ते व्यासे निरूपकथा अस्ति, व्यासः निरूपकः, कृष्णकथा निरूप्या. किमर्थम्
कृष्णकथा स्त्रीलिङ्गपदम् अस्ति?
परन्तु किमर्थं निरूप्या इति? यः निरूप्या अस्ति, व्यासेन निरूप्या अस्ति कृष्णकथा, व्यासः कृष्णकथां बोधयति. अतः यः विषयः बोध्यते सः निरूप्यः. अत्र कृष्णकथा एव बोध्यते व्यासेन, अतः कृष्णकथा निरूप्या अस्ति. परन्तु किमर्थम् एकदिशि अस्ति सम्बन्धः?
कृष्णकथा व्यासेन बोध्यते, तथैव एकदिशि अस्ति.
सर्वदा कृष्णकथा व्यासेन एव इति नास्ति तत्र, परन्तु अस्मिन् उदाहरणे व्यासः कृष्णकथां बोधयति इति कृत्वा सः निरूपकः. परन्तु सर्वदा कृष्णकथा व्यासेन एव निरूप्या भवति इति न. परन्तु अस्माकं न्यायविषये पुष्पा भगिनी वदति वा? धन्यवादः भगिनी. पुष्पा भगिनी, अस्माकं न्यायविषये एतावत्पर्यन्तं निरूपकनिरूप्यभावस्य उदाहरणं ददाति वा?
निरूप्यनिरूपक
पृष्ठसङ्ख्या अस्ति 6 इति. तत्र प्रथमे चित्रे प्रथमे कोष्ठे किमपि दत्तम् अस्ति, तस्य निरूपणं करोति वा?
आसननिष्ठ अधिकरणता तत् आसननिष्ठ अधिकरणता निरूपिता या निरूपिका आदेयता वान् यज्ञदत्तः.
समीचीनम्. आसननिष्ठ अधिकरणता निरूपित आधेयतावान् यज्ञदत्तः. अत्र कृपया पश्यन्तु सर्वे, अस्माकं प्रथमः विषयः आसीत् अधिकरणं किम्, आदेयः कः इति. अस्मिन् चित्रे अधिकरणम् अस्ति एकस्मिन् पक्षे. आसनम् अधिकरणम्, आदेयः यज्ञदत्तः इति अस्माकं प्रथमः विषयः. अस्माकं द्वितीयविषयः
वदामि.
वदतु.
यज्ञदत्तनिष्ठ
न एकनिमिषं भगिनी, द्वितीयविषयस्य विवरणम् अत्र किम् अस्ति? निरूपकनिरूप्यभावः इति. इत्युक्ते अत्र प्रथमे पक्षे निरूपकः इति आसनम्,
निरूपकः
निरूप्यः अस्ति
यज्ञदत्तः.
समीचीनम्. अतः अस्माकं सम्पूर्णवाक्यं किम् अस्ति एतयोः मेलनेन, आधार आधेयभावः अपि तु निरूप्यनिरूपकभावः, एतयोः मेलनेन किं वाक्यं निष्पद्यते? पुनः वदतु भगिनि.
आसननिष्ठ अधिकरणता निरूपिता आधेयतावान् यज्ञदत्तः.
समीचीनम्, समीचीनम्. आसनम् इति नपुंसकलिङ्गपदं, तस्मिन् अधिकरणता अस्ति, अतः आसननिष्ठ, आसने निष्ठ इति सप्तमी तत्पुरुषसमासः. कीदृशी अधिकरणता? आसननिष्ठ अधिकरणता इति कृत्वा तत्र कर्मधारयसमासः. समासविषये किञ्चित् पुनः वदामि. पुनः कीदृशी आधेयता? आसननिष्ठ अधिकरणता निरूपित आधेयता इति पुनः कर्मधारयसमासः एव. आधेयतावान् यज्ञदत्तः इति तत्र मतुप् प्रत्ययः इति उपयोगः. कीदृशयज्ञदत्तः? आधेयतावान् यज्ञदत्तः. विशेषणम् अस्ति, अतः पुनः कर्मधारे यज्ञदत्तनिष्ठ आदेयता इति वदामश्चेत् तत्र पुनः अस्मिन् पक्षे अपरस्मिन् पक्षे सप्तमी तत्पुरुषसमासः भवति, यज्ञदत्ते आधेयता इति. परन्तु अस्माकं वाक्यमस्ति एकस्मिन् दिशि आसननिष्ठ अधिकरणता निरूपित आधेयतावान् यज्ञदत्तः वा आधेयताश्रयः यज्ञदत्तः अस्तु. मुरलीमहोदय, यज्ञदत्तः इति आरभ्य वाक्यं रचयति वा?
अवश्यम्. आं भगिनि.
आं वदतु महोदय.
यज्ञदत्तः आदेयतावान् आश्रयः.
अस्तु, यथा पुष्पा भगिन्या रचिता वाक्यं रचितं तथैव कृपया रचयतु. अस्तु, कोऽपि सहायं करोति वा अत्र? विजि भगिनी.
आं भगिनि, यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणता अधिकरणता आश्रय आसनम्.
समीचीनम्.
अस्तु वा? अथवा अधिकरणता अधिकरणवत् आसनम्.
अधिकरणतावत्
आसनम्.
इदानीं मुरलीमहोदय प्रयत्नं करोति वा?
यज्ञदत्तनिष्ठ आदेयता निरूपिता अधिकरणतावत् आश्रयः आसनम्.
वत् वा आश्रयः?
वत् वा आश्रयः,
एतयोः एकः एव प्रयुज्यमानः अस्ति.
आं भगिनि, एदर् आदिकरणतावत् अथवा आश्रयः.
अस्तु, तथैव वदतु महोदय. यज्ञदत् पुनः वदतु कृपया.
अवश्यम् अवश्यं भगिनि, यज्ञदत्तनिष्ठ आदेयता निरूपित अधिकरणतावत् आसनम्.
आसनं, समीचीनम्. अस्तु, रघुपतिमहोदय, द्वितीयचित्रस्य विवरणं ददाति वा?
आसनं किम् इत्युक्ते यज्ञदत्तनिष्ठ आधेयता निरूपित अधिकरणतावत् आसनम्.
विपरीतदिशि?
विपरीतदिशि यज्ञदत्त यज्ञदत्तः कः इत्युक्ते आसननिष्ठ अधिकरणता निरूपित आधेयतावान् आधेयतावान् यज्ञदत्तः.
बहु समीचीनम्. अस्तु, मम प्रश्नः अस्ति द्वितीयचित्रे, सर्वे पश्यन्तु कृपया. द्वितीयचित्रे रमाबाई भगिनी, आधेयता कीदृशी इति प्रश्नः. आधेयता कीदृशी?
आधेयता कीदृशी?
आदेयता कीदृशी इति वक्तुं कुतः आरभते?
आदेयता कीदृशी? एकनिमिषं भगिनि.
आम् आम् आम्, समयं स्वीकरोतु कृपया.
यञ्चदत्तनिष्ठ आदेयता निरूपिता अधिकरणाश्रय आसनम्.
समीचीनम्. मम प्रश्नः अस्ति आदेयता कीदृशी इत्युक्ते अन्तिमं पदं भवेत् आधेयता इति भवत्याः वाक्ये.
एकनिमिषं भगिनि.
आम् आम्.
आसननिष्ठ अधिकरणता निरूपित यञ्चदत्तनिष्ठ आधेयता.
बहु समीचीनं भगिनि, बहु समीचीनम्. अस्तु, सदाशिव महोदय, अधिकरणता कीदृशी अस्मिन् उदाहरणे? अस्तु, द्वितीयम् अपरस्मिन् उदाहरणं स्वीकरोतु कृपया. एकनिमिषं महोदय. नवमे चित्रे तत्र प्रथमे भागे अस्ति खलु द्रव्यं गुणः इति, तत्र अधिकरणता कीदृशी
द्रव्यं
द्रव्यं
अधिकरणता कीदृशी गुणः निष्ठ गुणनिष्ठ आदेयता गुणनिष्ठ आदेयता निरूपित अधिकरणता अधिकरणतावत् द्रव्यं
द्रव्यं द्रव्यं कीदृशम् इति भवान् उक्तवान् परन्तु मम प्रश्नः अस्ति अधिकरणता कीदृशी इति
अधिकरणता गुण गुणनिष्ठ आदेयता निरूपितः निरूपिता अधिकरणता
परन्तु
आदेयता निरूपिता अधिकरणता
परन्तु द्रव्यं त्यक्तं खलु किमर्थं
न अवगच्छामि प्रश्नः न अवगच्छामि
अस्तु अधिकरणता कीदृशी इति प्रश्नः इत्युक्ते
द्रव्यनिष्ठ अधिकरणता
पूर्ण सम्पूर्णवाक्यं वदतु कृपया
द्रव्यनिष्ठ अधिकरणता निरूपित आदेयतवान् गुणः
भवान् भवान् गुणः कीदृशः इति
उक्तवान्
एकनिमिषं किञ्चित् समयं स्वीकृत्य वदतु अधिकरणता कीदृशी इत्युक्ते अधिकरणता अन्तिमं पदं भवेत् खलु
अस्तु
इत्युक्ते अधिकरणता कुत्र अस्ति केन निरूपिता अस्ति इति वक्तव्यम् एकस्मिन् वाक्ये
अधिकरणता द्रव्यं द्रव्यं निष्ठ अधिकरणता अधिकरणता अधिकरणता
आदेयतया निरूपिता अस्ति
आदेयता निरूपिता अस्ति अधिकरणता
इदानीं सहायं स्वीकरोति वा सीमा भगिनी न सरलमेव भवान् सर्वम् उक्तवान् परन्तु एकस्मिन् वाक्ये वक्तव्यम् अस्ति वदतु भगिनि
गुणनिष्ठ आधेयता निरूपित द्रव्यनिष्ठ अधिकरणता
इदानीं केवलं किञ्चित् रीअरेञ्ज् करणीयं तावदेव
प्रश्नः न अवगच्छामि तदेव
कारणतः
गुणनिष्ठ आदेयता निरूपित द्रव्यनिष्ठ अधिकरणता
समीचीनम् अस्तु एतावत्पर्यन्तं स्पष्टं खलु अन्य कोऽपि प्रयत्नं करोति वा करोति
वा
अहं करोमि
आम् कः अस्ति का अस्ति किं विजया भगिनी वा विजय भगिनी विजय भगिनी वदतु कृपया
अधिकरणता
अस्तु
अधेयता किं
एकं करोतु भगिनि अत्र अन्तिमे वाक्यम् अस्ति एवं सति तद् पठित्वा अग्रिमम् उदाहरणं पश्यामः कृपया पठतु
एवं सति द्रव्यं प्रथमतः कृतः निर्दिष्टम् इत्यस्य समाधानम् इतरे सर्वेपि द्रव्यम् आश्रित्य तिष्ठन्ति इति यदुक्तं तदपि स्पष्टम्
इत्युक्ते किं वदति वा
एतत् उपरि दत्तानि वाक्यानि उदाहरणानि एव अनन्तरं द्रव्यं गुणः तयोः सम्बन्धः एतानि वाक्यानि एव करणीयं द्रव्यं गुणः मध्ये किं सम्बन्धः इति वदनीयं द्रव्यं गुणः अस्ति द्रव्यनिष्ठ अधिकरणता निरूपित आधेयता गुणः आधेयतावान् गुणः तत्वत् द्रव्यं कर्मः द्रव्यं सामान्यः इत्यादीनि उदाहरणानि अपि वक्तव्यम्
समीचीनम् अग्रे यत्किमपि अस्ति चित्रस्य उल्लेखनमेव भवति अस्मिन् वाक्ये एवं सति इत्युक्ते अस्माभिः चित्रद्वयं दृष्टं गुणद्रव्ययोः सम्बन्धः तयोः निरूपकनिरूप्यभावः अपि दृष्टः कृपया म्यूट् कुर्वन्तु धन्यवादः तथैव अस्माभिः प्रथमे द्रव्यस्य विषयः एव दृष्टः द्रव्यस्य निरूपणं किं द्रव्यं किं प्रथमे पृष्ठे अपि तु द्वितीये पृष्ठे द्रव्यस्य विवरणमेव अधीतं द्रव्यम् इत्युक्ते किं द्रव्यं द्रव्ये सर्वेस्मिन् द्रव्ये गुणः वर्तते इति अधीतम् अस्माभिः अतः द्रव्यम् आश्रित्य एव इतरे पदार्थाः अपि तिष्ठन्ति इत्यस्य निरूपणम् अग्रिमे चित्रे भवति विजयभगिन्याः प्रथम उदाहरणस्य इत्युक्ते द्रव्यगुणयोः मध्ये कः सम्बन्धः इति उक्तः इदानीं प्रिया भगिनी कृपया कर्मद्रव्यम् निरूपणं करोतु कृपया
कर्मनिष्ठ अधिकरणनिरूपित
अस्तु प्रथमम् अस्तु यदि स्पष्टता नास्ति तर्हि कृपया प्रथमम् अधिकरणं किम् आदेयः कः इति उक्त्वा अग्रे द्वितीयं सोपानं गच्छतु कृपया
अस्तु अत्र कर्म अधिकरणः अस्ति अधिकरणम् अस्ति द्रव्यम् आधेयमस्ति
इति वा
खलु अधः द्रव्यमेव अस्ति खलु द्रव्यम् अधिकरणम् अस्ति कर्म आधेये अस्ति
आदेयः अस्ति इदानीं वदतु कस्मिन् अधिकरणता कस्मिन् आधेयता किं कं निरूपयति इति वदतु कृपया यथा विजयभगिन्या
अहं सहायं करोमि वा
प्रयत्नं करोमि अहं
प्रयत्नं करोतु भगिनि
द्रव्यनिष्ठ अधिकरणनिरूपित अधिकरणतानिरूपित आधेयताश्रयः कर्म
बहु समीचीनं पुनः कर्मात् आरभ्य
कर्मनिष्ठ आदेयताश्रयः
कर्मनिष्ठ
उभयदिशि अस्ति कर्मनिष्ठ अधिकरणतानिरूपित
कर्मनिष्ठ कर्म आदेयः इति उक्तः
खलु अस्तु कर्मनिष्ठ आदेयता निरूपित अद्य अधिकरणताश्रयद्रव्यं
समीचीनं समीचीनं भगिनि सम्यक् एव अस्तु कृपया पृष्ठसङ्ख्या षड् इति अस्ति खलु तत्र गुणद्रव्ययोः विवरणम् अस्ति चित्ररूपेण इदानीं मनसि एव गुणस्य स्थाने यत्किमपि पदार्थः अस्ति सामान्यं विशेषः समवायः अभावः तत्र स्थापयित्वा निरूपणं कुर्वन्तु कृपया गुणस्य स्थाने सामान्यं गुणस्य स्थाने विशेषः यतोहि द्रव्यं तु सर्वदा भवति एव आश्रयरूपेण खलु अधिकरणरूपेण द्रव्यं सर्वदा तिष्ठति एव अस्तु विजया भगिनी
सामान्यम्
आम् आम् सामान्यस्य निरूपणम् आम्
द्रव्यनिष्ठ अधिकरणता निरूपिता सामान्यनिष्ठ आदेयता
समीचीनम्
अनन्तरं द्रव्यनिष्ठ अधिकरणता निरूपिता
चित्रं चित्रं पश्यतु कृपया
अब्बा नित्य आदेयत
पुनः भगिनी न श्रुतं द्रव्यनिष्ठ अधिकरणता निरूपित
अधिकरणता निरूपित सामान्य निष्ठ आदेयत
समीचीनं भगिनी पुष्पा भगिनी
सामान्य
इदानीम् अस्तु इदानीम् अहं पृच्छामि समवायस्य निरूपणं समवायः कीदृशः इति वदतु कृपया चित्रं दृष्ट्वा आम् आम् आं भगिनि
सामान्यं तु
समवाय
सामान्य
सामान्यम् अभवत् विशेषः अभवत् वा न खलु
विशेषः
विशेषं
विशेषः तु आधेयः द्रव्यं तु अधिकरणता अधिकरणं नपुंसकलिङ्ग अधिकरणं तत् तत्तु द्रव्यनिष्ठ अधिकरणता निरूपित विशेषनिष्ठ आदेयः आधेयता विशेषनिष्ठ आधेयता
परन्तु सम्यक् एव परन्तु मम प्रश्नः आसीत् विशेषः कीदृशः इति
ओ विशेषः विशेषः एकगुणः
न न भवत्याः विवरणे भवत्याः निरूपणवाक्ये
निरूपणवाक्यः विशेषः अस्तु विशेषः गुणनिष्ठ न न न न विशेषनिष्ठ
न द्रव्यनिष्ठ इति आरभ्य खलु
द्रव्यनिष्ठ अधिकरणता निरूपित आधेयतावान् विशेषः
समीचीनं समीचीनम् अग्रे रवि महोदय द्रव्यं कीदृशम् अग्रिमम् उदाहरणे समवायः द्रव्यम् इति अस्ति तत्र द्रव्यं कीदृशम् महोदय अस्ति वा रवि
महोदय द्रव्य अधिकरण
अस्तु कृपया पुनः एकवारं वदामि, षष्ठमे पृष्ठे विद्यमानं चित्रं दृष्ट्वा तत्र गुणस्य स्थाने अपरं पदार्थं संस्थाप्य वदतु कृपया, तदा सुलभः भवति।
द्रव्यनिष्ठ अधिकरणता निरूपित अधेतावान् समवायः।
बहु समीचीनं। पुनः परन्तु द्रव्यम् इति उक्तं खलु, द्रव्यं कीदृशम्?
द्रव्यम् अधिकरण,
परन्तु द्रव्यम् इति समाप्यते खलु,
समवायनिष्ठ अधेता निरूपित अधिकरणताश्रय द्रव्य।
समीचीनं, बहु समीचीनम्। अग्रे मुरलीमहोदय, अभावः द्रव्यं, तत्र अभावः कीदृशः?
अभावः द्रव्यनिष्ठ अधिकरणताश्रय निरूपितः।
एकनिमिषं, द्रव्यनिष्ठ अधिकरणता
निरूपित आदेय आश्रय अभावः,
आदेयताश्रयः अभावः,
आदेयताश्रयः अभावः।
अस्मिन् उदाहरणे विजि भगिनी, आदेयता कीदृशी?
एकनिमिषं भगिनि, आदेयता द्रव्य तयोः मध्ये भगिनि,
न द्रव्य अभावः,
अभावः द्रव्य अभावयोः मध्ये आधेयता, द्रव्यनिष्ठ अधिकरणता निरूपित अभाव निष्ठ आधेयता।
बहु समीचीनम्, उत्तमं,
धन्यवादः।
अस्तु कृपया सर्वे पुनः प्रत्येकं विषयस्य निरूपणं लिखित्वा वा उक्त्वा अभ्यासं कुर्वन्तु। द्रव्यं कीदृशं, गुणः कीदृशः, सामान्यं कीदृशं वा, आधारता कीदृशी, आधेयता कीदृशी इति पुनः अभ्यासनीयः। अस्तु रघुपति महोदय,
अहं गिरिगपाठं कृतवती भगिनि।
उत्तमम्, उत्तमं भगिनि, सम्यक् एव। एतद्विषये एव खलु, चित्रस्य विषये?
बहु इतः पर्यन्तं किं वयं कृतवत् सः सम्यक् पूर्वं गृहपाठं कृतवती।
उत्तमम्, उत्तमं भगिनि। अस्तु अग्रे रघुपति महोदय, कृपया पठति वा, पृष्ठसङ्ख्या अस्ति सप्त, तानि इति आरभ्य।
एकनिमिषं, तानि नवद्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि, तथा च सङ्ग्रह तत्र द्रव्याणि
न श्रोतुं शक्नोमि महोदय, पुनः आरम्भं करोतु। तानि इति आरभ्य,
तानि नवद्रव्याणि सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि।
न श्रूयते महोदय।
तथा च सङ्ग्रहः तत्र द्रव्याणि पृथिव्य तेजो।
न सर्वैः श्रूयते वा?
आं भगिनि, आं भगिनि, श्रूयते।
आं भगिनि,
न परन्तु सङ्ग्रहकारेण निर्दिष्टानि एतत् सर्वं न श्रुतम्।
सङ्ग्रहकारेण निर्दिष्टानि पृथिव्यादीनि, वदामि अग्रे?
पठतु महोदय।
ओके, तथा च शृणोति वा?
आम् आम् आम्।
तथा च सङ्ग्रहः तत्र द्रव्याणि पृथिव्या तेजो वायु आकाशकालादि आत्मनांसि नवैव इति।
इदानीं किञ्चित् वदति वा?
सङ्ग्रहकारेण, तर्कसङ्ग्रहकारेण निर्दिष्टानि नवद्रव्याणि पृथिव्ये आकाश पृथिव्य आप तेज वायु वायु आकाश काल दिक् आत्मा मनांसि इति नव नव नवपदार्थ नव द्रव्या.
समीचीनम्. अस्तु, समीचीनमेव. सङ्ग्रहकारेण इत्युक्ते तर्कसङ्ग्रहकारेण तर्कसङ्ग्रहस्य भाष्यं वा विवरणं ये लिखितवन्तः ते नवद्रव्याणां विवरणं दत्तवन्तः. प्रथमे प्रथमे पुटे एव वयं दृष्टवन्तः नवद्रव्याणि कानि. पृथिवी, जलम् इत्युक्ते अप् इत्युक्ते जलम् इति अर्थः. तेजः, वायु, आकाशः, काल, दिक्, आत्मा, मनः. अत्र समस्तपदमस्ति, इतरेतरद्वन्द्वसमासः अस्ति, अतः मनांसि इति बहुवचने भवति व्याकरणदृष्ट्या. परन्तु अत्र केवलं नवद्रव्याणां उल्लेखनमेव अस्ति. रमाबाई भगिनी, नवद्रव्याणि कानि?
ततः गुणान्
नवद्रव्याणि कानि? नवद्रव्याणि कानि?
नवद्रव्याणि पृथिवी आपः
अपः पृथिवी अप् इति अप् इति वदुच्यते.
पृथिवी अप् तेजः वायुः आकाश कालः दिक् आत्मा मनः.
अस्तु, किमपि अभवत्? न श्रूयते, बहु बाधाः सन्ति, किमर्थम् इति न जाने.
अत्र किं वदामि?
पुनः वदतु भगिनि.
पृथिवी सन्धिकः इति अहं वदामि वा?
न, पृथक्तया वदतु भगिनि. पदार्थाः
पृथिवी
द्रव्याणि के के? क्षम्यतां, द्रव्याणि.
पृथिवी अप् तेजः वायुः आकाशः कालः दिक् आत्मा मनः.
समीचीनम्. अतः नवद्रव्याणि कृपया मनसि स्थापयेत्. अग्रे पठतु भगिनि. ततः
गुणान् विभजते विभजते रूप रस गन्ध स्पर्श संख्या परिमाण पृथक्
पृथक्त्व
संयोग विभाग परत्व अपरत्व गुरुत्व द्रवत्व स्नेह शब्द बुद्धि सुख दुःखे सुख दुःख इच्छा द्वेष प्रयत्न धर्म अधर्म संस्काराः.
बहु समीचीनम्.
चतुर्विंशतिगुणाः.
समीचीनं.
चतुर्विंशतिगुणाः
इति चतुर्विंशतिगुणाः वर्तन्ते. गुण पूर्वमेव दृष्टम् अस्माभिः, गुणः सर्वदा द्रव्ये एव भवति इति. चतुर्विंशतिगुणाः द्रव्ये भवन्ति, द्रव्येषु भवन्ति इति. ते के?
रूपं,
रसः,
गन्धः, स्पर्श संख्या
परिमाणं
पृथक्त्वं
संयोगः
विभागः परत्वं अपरत्वं गुरुत्वं द्रवत्
द्रवत्वं स्नेहः शब्दः बुद्धिः सुखं दुःखं इच्छा द्वेषः प्रयत्नः धर्मम् अधर्मं संस्काराः चतुर्विंशति गुणाः
धर्मः अधर्मः संस्कारः इति अत्रापि संस्काराः इति बहुवचने निर्दिष्टः यतोहि अत्रापि इतरेतरद्वन्द्वसमासः भवति गुणानां सङ्ग्रहः अस्मिन् वाक्ये अस्ति इतोपि विस्तृतेन अग्रे पश्यामः प्रत्येकं गुणस्य विषये अग्रे द्रक्ष्यामः अत्र तु केवलम् उल्लेखनम् अस्ति उद्देशग्रन्थः उद्देशभागः इति पूर्वं दृष्टः अतः केवलं गुणानाम् उल्लेखनमेव अस्तु सदाशिव महोदय आम्
भगिनी एकः सन्देहम् अस्ति
आं महोदय वदतु कृपया
वदामि
न कस्यचित् प्रश्नः अस्ति कः अस्ति कः पृच्छति
एकः सन्देहम् अस्ति मुरळी
वदतु महोदय
प्रथमपुटे पृथ्वी द्रव्यं नवविधः अस्ति
वदतु महोदय
द्रव्यं जलं तेजः वायुः आकाशः कालः दिक् आत्मा मनः इति नवविधानि अस्ति प्रथमपुटे परन्तु सप्तपदार्थानि द्रव्यं गुण कर्म सामान्यविशेष समवाय अभावः इदे सप्तपदार्थाः वाक्यमस्ति
ते कुत्र सन्ति इति प्रश्नः वा
हौ दिस् इस् फस्ट् पेज् इट् इस् 9 अण्ड् थर्ड् पेज् सप्तपदार्थाः सो पदार्थाः द्रव्ये एनी डिफरेन्स् इस् देर्
अस्तु वयं पश्यामः अग्रिमे पुटे अस्ति किञ्चित् प्रतीक्षस्व कृपया अग्रिमे पुटे अस्ति महोदय सदाशिव महोदय कृपया पठतु
केचन दर्शनिकाः कर्म इति पदार्थं न अङ्गीकुर्वन्ति अतः कर्मणि अस्ति विवादः न तथा गुणेषु इत्यर्थं गुणेषु कर्म न निर्दिष्टत कथं गुणानाम् गुणानाम् इयत्ता विषये विवादसत्त्वे अपि गुणः अतिरिक्तपदार्थः वर्तते न वा इति नास्ति विवादः अतः गुणकर्मणोः मध्ये गुणा एव द्रव्य निर्दिशोत्तरं निर्दिष्टाः दार्शनिका नव गुणविभागः विभागे कर्म न अङ्गीकुर्वतः कथम् इति उच्यते गुणानाम् इति विषये कर्म अतिरिक्तपदार्थः विवादः अपि अतिरिक्तपदार्थः वा न वा इति विवादः अतः गुणकर्मणोः मध्ये गुणा एव द्रव्यं न कर्म
अत्र कृपया उपरि स्तरे पदार्थाः भवन्ति सप्तपदार्थाः
शब्दपदार्थाः
तेषु अन्यतमः कर्म इति पठितम् अस्माभिः. तदनन्तरं गुणविषये पठितं खलु, द्रव्ये गुणाः सन्ति इति. इदानीं कर्मविषये पठामः. कर्म इति अन्य पदार्थेषु अन्यतमः अन्यतमम् अस्ति खलु,
गुणेषु
पदार्थेषु अन्यतमम् अस्ति कर्म इति.
कर्म
हा, परन्तु अत्र विवादः कुतः?
कर्म कर्मविषये विवादः कुतः
अस्ति? कर्मविषये विवादः इत्युक्ते पदार्थेषु कर्म न अन्तर्भूतः भूतम् इति विवादः. तन्नाम सप्तपदार्थाः न सन्ति, केवलं षट् पदार्थाः सन्ति इति केचन वदन्ति. कर्म इति पदार्थः न परिगण्यते तैः. परन्तु गुणविषये तादृशविवादः नास्ति. गुणः सर्वैः अङ्गीक्रियते, गुणः इति पदार्थः परन्तु कर्मविषये विवादः भवति. अग्रे
ते च रूपरसगन्धस्पर्शस्यादि.
महोदय महोदय, अतः गुणकर्मणोः मध्ये
गुणा एव द्रव्यनिर्दिशोत्तरं निर्दिष्टाः
इत्युक्ते
निर्देशोत्तर गुणकर्मण मध्ये गुणः एव द्रव्यनिर्दिष्टम् इति निर्दिष्टाः.
द्रव्यनिर्देशोत्तरम् इत्युक्ते द्रव्यस्य अनन्तरं गुणस्य विवरणम् एव दीयते, न तु कर्मणः खलु.
न तु कर्मणः.
प्रथमं द्रव्यं, यतोहि द्रव्यमेव आश्रयः अस्ति, सर्वेषाम् आश्रयः अस्ति. तदनन्तरं गुणः, यतोहि गुणविषये कस्यापि विवादः नास्ति. परन्तु कर्मविषये तु विवादः भवति. अत्र गुणानां इयत्ता विषये इत्युक्ते किम्? इयत्ता इत्युक्ते कति गुणाः सन्ति इत्यस्य विषये विवादः अस्ति, न तु गुणः इति पदार्थः अस्ति वा न इति. गुणः अवश्यं पदार्थः इति अङ्गीक्रियन्ते,
परन्तु कर्मण
कति गुणाः सन्ति इति तस्मिन् विषये तु किञ्चित् विवादः प्रचलति एव. अस्तु अग्रे सीमा भगिनी.
भगिनी, ते च रूपरसगन्धस्पर्श इत्यादि सङ्ग्रहपङ्क्त्या निरूपिताः, ततः कर्म क्रिया निर्दिष्टा उत्क्षेपणादिग्रन्थेन. उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण गमनानि पञ्चकर्माणि. पूर्वोक्तानां गुणानां कर्मणां च विस्तृतं विवरणम् अग्रिमे लक्षणप्रकरणे भविष्यति. सम्प्रति नाम्ना सङ्कीर्तनम् एव भवति.
वदतु भगिनि.
गुणाः गुणस्य सङ्ग्रहः उपरि दत्तं रूपरसगन्धस्पर्श इत्यादि तथा च कर्मस्य निरूपणम् अतः निर्दिष्टम् उत्क्षेपण अपक्षेपण इत्यादि तत्तु नाम सङ्कीर्तनम् एव अस्ति. तयोः विस्तृतं वर्णनम् अग्रे भविष्यति.
समीचीनम्. इदानीं कर्माणि कानि इति वदति, पञ्चकर्माणि अत्र दीयन्ते, कानि कानि?
उत्क्षेपण अपक्षेपण आकुञ्चन प्रसारण
उक्षेपणम् अपक्षेपणम् आकुञ्चनं प्रसारणं गमनम् इति पञ्चकर्माणि अत्र दीयन्ते. परन्तु कर्माणि तु इतोहि अधिकानि भवन्ति, तत्तु वयं जानीमः. बहवः क्रियाः, कर्म इत्युक्ते क्रिया, क्रियारूपेण यत्किमपि भवति तत्तु कर्म इति उच्यते. केवलं पञ्चकर्माणि इति न, इतोपि अधिकानि कर्माणि भवन्ति. अवशिष्टानि कर्माणि येषाम् उल्लेखनम् अत्र नास्ति, तानि गमनम् इत्यस्मिन् अन्तर्भूतानि. अस्तु, इदानीम् उक्षेपणम् इत्युक्ते यदि अहं कन्दुकम् उपरि क्षिपामि तत् उत्क्षेपणम् इति उच्यते. अपक्षेपणम् अधः क्षिपामि चेत् यत्किमपि अधौ भागे क्षिपामि. आकुञ्चनम् इत्युक्ते आकर्षणम्.
कान्ट्राक्षन्
प्रसारणम् एक्स्पान्शन् स्ट्रेचिङ्ग् इति. गमनं गमनक्रिया,
अन्यत् सर्वं गमनम्.
अन्यत् सर्वं गमनमेव. अस्तु, सम्यक्. अग्रे प्रिया भगिनी पठति वा? प्रिया भगिनी,
पूर्वोक्तानां गुणानां
न तत्तु अभवत्, सीमा भगिन्या पठितं. तत्र सर्वे,
तत्र सर्वे गुणादयः द्रव्ये वर्तन्ते इत्यस्य पूर्वोक्तस्य पृष्ठः त्रीणि अयमर्थः विवक्षितः.
इत्युक्ते अग्रिमे चित्रे अस्य वाक्यस्य अर्थः अस्ति. गुणादयः इत्युक्ते किम्?
चतुर्विंशति गुणाः
न, गुणादय गुण पदार्थानां विषयः. गुणः इति पदार्थः खलु, अतः गुणः कर्म सामान्यं विशेषः समवायः अभावः इति इत्यादयः इति. स्पष्टं वा भगिनि?
स्पष्टम्, इदानीं स्पष्टम्.
इदानीं चित्रं पश्यतु कृपया. प्रथमभागस्य वर्णनं करोति वा?
आम्. द्रव्यम् अधः अस्ति, उपरि द्रव्यं गुणः कर्म सामान्यं विशेषः समवायः अभावः, तथापि पदार्थाः द्रव्ये भवन्ति इत्यर्थः.
इत्युक्ते स्वस्य वाक्यैः वदतु भगिनि.
द्रव्ये एतानि सप्त पदार्थानि भवन्ति इति.
द्रव्यमेव आश्रयः अस्ति, सप्तानां पदार्थानाम् आश्रयः. द्रव्यमपि द्रव्ये एव भवति, यथा घटः भूतले अस्ति इति अहं वदामि चेत्, घटः इति द्रव्यं, भूतलमपि द्रव्यम्. अत्र भूतलमेव आश्रयः अस्ति घटस्य इति विवक्षितः.
अस्तु
अस्तु, अग्रे विजया भगिनी.
आं भगिनि.
आं, द्वितीयभागः कृपया.
द्रव्यादि
न गुणः गुणः. अत्र चित्रस्य वर्णनं द्वितीयभागं कृपया विवृणोतु.
गुणः कर्म सामान्यम् एतदेव.
गुणः अस्ति, सामान्यं समवायः अभावः इति पदार्थाः उपरि.
अधः द्रव्यम् अस्ति, उपरि गुणः कर्म सामान्यं विशेषः.
द्वितीयभागः भगिनी, द्वितीयभागम्. भगिनी
नवद्रव्याणि
न न भगिनि गुणः अस्ति तस्मिन् सामान्यं समवायः अभावः तथा च गुणे अस्तु भगिनि अस्तु अस्तु इतः परं पठतु कृपया पुष्पा भगिनि
अस्तु भगिनि गुणः सामान्यं समवायः अभावः तथा च गुणे द्रव्यं गुणः कर्म विशेषः च नास्ति इत्यर्थः
इत्युक्ते गुणे केवलं सामान्यं समवायः अभावः वर्तन्ते गुणे कर्म न भवति गुणे द्रव्यम् अवश्यं न भवति गुणे विशेषः अपि नास्ति इति अर्थः इदानीं पठतु भगिनि
कर्मणि सामान्यं समवायः अभावः एव अस्ति सन्ति एवं कर्मणि अपि द्रव्यं गुणः कर्म विशेषः च नास्ति इति अर्थः
अस्तु अग्रे अपि पठतु भगिनि
सामान्ये समवायः अभावः सन्ति तथा च सामान्ये द्रव्यं
समवायः अभावः च
स्तः तथा च सामान्ये द्रव्यं गुणः कर्म सामान्यं विशेषः च नास्ति इति अर्थः
अग्रे रवीप महोदय विशेषः
विशेषे पूर्वोक्ताः पञ्चपदार्थाः न सन्तति न सन्ति इति अर्थः
विशेषे किम् अस्ति किं किम् अस्ति
विशेषे समवायः च अभावः
अग्रिमं समवाये
समवाये षट् पदार्थाः न सन्ति इति अर्थः समवाये अभावः एव अस्ति अभावे षट् पदार्थाः न सन्ति इति अर्थः अभावे अभावः अस्ति
समीचीनम् अग्रिमम् अपि पठतु महोदय
तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद् वाक्यार्थः वाक्यार्थः किन्तु द्रव्ये अवश्यं तिष्ठन्ति गुणादौ यथायथं तिष्ठन्ति इति अर्थः
इत्युक्ते किम्
सर्वे द्रव्ये एव सर्वे द्रव्ये गुणं सर्वे पदार्थे द्रव्ये अवश्यं
सर्वे गुणाः खलु
अन्य सर्वे पदार्थाः गुणादयः पदार्थाः द्रव्ये भवितुम् अर्हन्ति
इत्युक्ते अत्र तथा च गुणादयः सर्वे द्रव्ये एव तिष्ठन्ति इति न तद्वाक्यार्थः किन्तु द्रव्ये अवश्यं तिष्ठन्ति गुणादौ यथायथं तिष्ठन्ति इति अर्थः इत्युक्ते सर्वे गुणाः एकस्मिन् द्रव्ये एव तिष्ठन्ति इति न अर्थः अत्र
सर्वे पदार्थाः
यथा यथो यथा यथम् इत्युक्ते यथोचितम् उचितरूपेण गुणादौ गुणः द्रव्ये तिष्ठति इत्युक्ते चतुर्विंशतिगुणाः सर्वे एकस्मिन् द्रव्ये तिष्ठति इति न अर्थः केचन गुणाः द्रव्ये एकस्मिन् द्रव्ये तिष्ठन्ति केचन यथो उचितं सन्दर्भ अनुसारं तिष्ठन्ति इति अर्थः परन्तु अवश्यं द्रव्ये एव भवन्ति अस्तु अग्रे मुरली महोदय पठति वा
अवश्यं भगिनि द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शी दर्शित्रैः अर्थवर्ण एव अर्थवर्णनेव नेन न इदानीति
हरि ओम्
हरि ओम् इदम् आयाति सामान्यं द्रव्ये गुणे कर्मणि त्रिषु वर्तन्ते
तावत् पर्यन्तं महोदय
द्रव्ये वर्तन्ते इत्यत्र पूर्वदर्शिति चित्रैः पूर्वपुटे द्रव्ये गुणकर्मसामान्यविशेषसमवाय अभाव सर्वम् अस्ति
किं किं पुनः वदतु महोदय
द्रव्ये गुणः कर्मः सामान्यं
विशेषसमवायः
अभावः सर्वे सन्ति
सामान्यं कुत्र
सामान्यम् अथवा सामान्यं केवलं द्रव्ये गुणे कर्मणि त्रिषु एव वर्तते
तत्र चित्रात् द्रष्टुं शक्नुमः खलु सामान्यं कुत्र कुत्र अस्ति प्रथमे भागे द्वितीये भागे अपि तु तृतीये भागे अवश्यं सामान्यं द्रव्ये गुणे कर्मणि अस्ति इति अस्तु अग्रे विजय भगिनी तत्र भगिनी अस्ति वा विजय भगिनी रघुपति महोदय
हा भगिनी तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थम् आदाय द्रव्यसमुदायः यथा निरूपितः तथा च गुणत्वसामान्यम् आदाय गुणसमुदायः कर्मत्वसामान्यम् आदाय कर्मसमुदायः निरूपयितुं शक्यते
वदतु महोदय
तत्र सर्वेषु द्रव्येषु विद्यमानं गुणरूपं पदार्थम् आदाय द्रव्यसमुदायः द्रव्येषु यानि विशिष्ट गुणरूपम् अस्ति तत् आधारेण द्रव्यसमुदायः निरूपितः तथा गुणत्वसामान्यम् आदाय गुणसमुदाय सामान्यं गुणे सामान्यमादाय गुणसमुदायः इति निरूपितः
इत्युक्ते अत्र गुणत्वसामान्यम् इत्युक्ते सामान्यम् इत्यनेन
सामान्यं पदार्थ
सामान्यम् इति न पदार्थः न अत्र सामान्यम् इत्यनेन सर्वे गुणाः इति अर्थः सर्वे गुणाः यथा पूर्वस्मिन् वाक्ये सर्वाणि द्रव्याणि आदाय इत्युक्ते स्वीकृत्य इति अर्थः आदाय सर्वाणि द्रव्याणि इत्युक्ते पृथ्वी जलं तेजः वायुः आकाशः दिक्काल आत्मा मनः एतानि सर्वाणि द्रव्याणि एव यतोहि तेषु गुणः वर्तते अतः एतेषां समूहः भवति द्रव्यसमुदायः इत्यनेन तथैव सर्वे गुणान् सर्वान् गुणान् स्वीकृत्य गुणसमुदायः इति वक्तुं शक्यते चतुर्विंशतिगुणान् स्वीकृत्य गुणसमुदायः भवति यथा द्रव्यसमुदायः
तथा पञ्च कर्मणि पञ्च विभागाः सन्ति ते कर्मत्वसामान्यपदं कर्मसमुदायः
इत्युक्ते सर्वाणि कर्माणि समुदायः इति उच्यते सर्वाणां कर्मणां समुदायः वा सङ्ग्रहः समुदायः इति उच्यते तत्र द्वितीयपुटे द्रव्यसमुदायः इत्यस्य सूचनम् अस्ति बहुषु भवति चेत् बहूनां सा संज्ञा इति भवति प्रथम द्वितीये परिच्छेदे तत्र तस्य सूचनमेव भवति अत्रैव अत्रापि इत्युक्ते जलं द्रव्यं पृथ्वी द्रव्यम् आकाशः द्रव्यम् इत्युक्ते गुणः सर्वेषु वर्तते बहुषु वर्तते इति कृत्वा तेषां सर्वानां समूहः द्रव्यम् इति उच्यते तथैव गुणसमूहः गुणसमुदायः कर्मसमूहः कर्मसमुदायः इति उच्यते स्पष्टं वा एतावत्पर्यन्तं प्रश्नः अस्ति वा
भगिनी
आम्
एकः